एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन परम्परागत रूपेण समायोज्यमानायाः भोटु यात्रा नाम्ना प्रसिद्धायाः कञ्चुक प्रदर्शन यात्रायाः अवलोकनम् विहितम् वर्तते। राष्ट्रपतिः पौडेलः ललितपुरस्य जावला खेलस्थाने पूर्वे दिह आयोजिते कार्यक्रमे कञ्चुक प्रदर्शन यात्रायाः अवलोकनम् अकरोत्। राष्ट्रपतिना पौडेलेन सहैव उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधानमन्त्री केपी शर्मा ओली, प्रधान न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठः, सभामुख देवराज घिमिरे, राष्ट्रिय सभाया अध्यक्ष नारायण प्रसाद दाहालश्च कञ्चुक प्रदर्शन यात्राया अवलोकनम् विहितवन्त। प्रतिवर्ष राष्ट्रप्रमुखस्य उपस्थितौ मत्स्येन्द्रनाथस्य रथम् आरुह्य गुठी संस्थानस्य कर्मचारीभिः कञ्चुक प्रदर्शनस्य परम्परानुसारं ह्यः राष्ट्रपतेः पौडेलस्य उपस्थितौ कञ्चुक प्रदर्शितो वर्तते। तदवसरे राष्ट्रपति प्रभृतिभिः नेतृभिः रक्त मत्स्येन्द्रनाथस्य दर्शन पुरस्सरं प्रसाद ग्रहणेन सह जीवित देव्या कुमार्या अपि दर्शनम् विहितमासीत्। वर्षाणां सहकालस्य देवताया रक्त मत्स्येन्द्रनाथस्य रथम् पुलचको स्थानात् गावहाल मंगलबजार टंगाल इटिटोल कुमारीपाटी मानभवन मार्गेण जावलाखेल स्थानम् प्राप्य तस्य चतुर्थ दिने कञ्चुक प्रदर्शनम् कृत्वा यात्रायाः समापनस्य प्रचलनानुसारेण ह्यः कञ्चुक प्रदर्शनम् विहितम्। अनेन सहैव अस्य वर्षस्य रथयात्रा सम्पन्ना वर्तते। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली निगदति लोकतन्त्राय संघर्षम् कृत्वा आगताभ्याम् नेपाली कांग्रेस नेकपा एमाले दलाभ्याम् सहितानाम् दलानाम् सत्ता समीकरणेन अग्रगमनाय देशस्य समृद्धये च संविधानम् संशोध्यते। नेकपा एमाले दलेन सम्प्रत्येव मनोनीतस्य उपाध्यक्षस्य केन्द्रीय सदस्यानाम् च शपथ ग्रहणाय ललितपुरस्य च्यासलवर्तिनी दल केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री ओली संविधानम् संशोध्य प्रतिगमनम् प्रति उन्मुखम् जातम् इत्युक्त्वा भ्रमम् प्रसारयितुम् प्रयासः विधीयमानोऽस्तीति चर्चयन् देशस्य जनतायाश्च आवश्यकतानुसारेण संविधानम् संशोधनीयम् प्राविलेखनमस्तीति प्रावोचत्। तदवसरे नेकपा एमाले दलस्य अध्यक्षेण ओलिना दले मनोनीताः पदाधिकारिणः केन्द्रीय सदस्याश्च पदगोपनीयतयोः शपथेन प्रतिज्ञापिताः आसन्। अध्यक्ष ओली उपाध्यक्षेण गुरु बरालेन सह अन्यान् षोडश केन्द्रीय सदस्यान् शपथम् अग्राहयत्। अनेन सहैव अत परम् एमाले दलीय केन्द्रीय समितिः चतुस्सप्तति सदस्यात्मिका सम्भूता वर्तते। प्रधानमन्त्री केपी शर्मा ओली आयोजनायाः निर्माणक्रमे गुणस्तरे ध्यानम् दातुम् निर्दिशति। मार्ग विभागेन गतार्थिकवर्षे संचालितानाम् कार्याणाम् प्रगति समीक्षा गोष्ठ्याः समापनस्य अवसरे प्रधानमन्त्री ओली मार्ग सुरक्षाम् जनसुरक्षाम् च केन्द्रीकृत्य योजनाम् सम्पादयितुम् निरदिशत्। प्रधानमन्त्री ओली योजनाम् आवधिक रूपेण विभज्य कार्यस्य सम्पादनम् उचितम् भवतीति चर्चयन् मन्त्रालयेषु समन्वयम् विधाय परिणामस्य प्राप्तित्वेन कार्यं विधातुं परामृशत्। सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्री पदे कमलबहादुर शाह नियुक्तोऽस्ति। प्रदेश प्रमुख नजीर मिया नेपालस्य संविधानस्य अष्टाषष्ट्युत्तरैक शततम्या धाराया द्वितीयोपधाराया अनुसारेण नेपाली कांग्रेस प्रदेश संसदीय दलस्य नेतारं शाहं मुख्यमन्त्री पदे नियुक्तवान् अस्तीति प्रदेश प्रमुखस्य कार्यालयेन ज्ञापितं वर्तते। तत्पूर्व सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्री पदे नेपाली कांग्रेस दलस्य अष्टादश नेकपा एमाले दलस्य एकादश चेति समहत्य उनत्रिंशत् प्रदेशसभा सदस्यानाम् समर्थनेन ह्य एव शाहेन मुख्यमन्त्री पदाय प्रदेश प्रमुखस्य समक्षम् स्वत्वम् प्रस्तुतमासीत्। तात्कालिक मुख्यमन्त्रिणा दीर्घबहादुर सोडारिणा श्रावणस्य अष्टादशे दिवसे त्यागपत्रस्य प्रदानानन्तरम् प्रदेश प्रमुख मिया द्वयोस्तदधिकानाम् वा दलानाम् समर्थनम् प्राप्तुम् क्षमम् प्रदेशसभा सदस्यम् ह्य सायम् पञ्चवादनम् यावत् मुख्यमन्त्री पदे स्वत्वम् प्रस्तुतुम् आहूतवान् आसीत्। कर्णाली प्रदेशस्य नवनियुक्तैः चतुर्भिः मन्त्रिभिः पदगोपनीयतयोः शपथः गृहीतो वर्तते। मुख्यमन्त्रिणः यामलाल कडेलस्य परामर्शेन प्रदेश प्रमुखेण नियुक्तः नेपाली कांग्रेस दलस्य पक्षतः आर्थिक विषय योजना मन्त्री राजीव विक्रम शाह, सामाजिक विकास मन्त्री घनश्याम भण्डारी, उद्योग पर्यटन वन वातावरण मन्त्री सुरेश अधिकारी, जलस्रोत ऊर्जा मन्त्री विजया बुढा च पदगोपनीयतयो शपथम गृहीतवन्त। सत्ता सहकारी नेपाली कांग्रेस दलस्य पक्षतः चतुर्णा मन्त्रीणां शपथ ग्रहणेन सहैव कर्णाली प्रदेश सर्वकार पूर्णताम् प्राप्तवान् अस्ति। अत्रान्तरे मुख्यमन्त्री कडेलः अद्य प्रदेशसभातः विश्वासस्य मतं गृह्णाति। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई नेपालस्य शिक्षायाः गुणस्तराय विकासाय आधारभूतस्तरादेव शिक्षायां सुधारः कर्तव्य इति भाषते। प्रेस चौतारी संस्थायाः कास्की शाखायाः ह्य पोखरायाम् आयोजिते पत्रकार मेलन कार्यक्रमे मन्त्री भट्टराई आधारभूतस्तरे समुचितम् अध्ययनम् विहितम् सद् माध्यमिक शिक्षा परीक्षायाम् समुचित परिणामः प्राप्तुम् शक्यते इति प्रत्यपादयत्। उद्योग वाणिज्य पूर्ति मन्त्री दामोदर भण्डारी थानकोट वर्तिनः नेपाल तैल निगमस्य बागमती प्रादेशिक कार्यालयस्य निरीक्षणं विहितवान् अस्ति। निरीक्षणस्य क्रमे उद्योग मन्त्री भण्डारी कार्यालयं व्यवस्थितं विधातुं, तैलेन्धनस्य प्रसवण नियन्त्रयितुं, कार्यालये सुशासनं स्थापयितुं च निरदिशत्। तत्पूर्वं परह्य मन्त्री भण्डारी गुह्येश्वरी वर्तिनः इन्धन निगमस्य विमानेन्धनागारस्य स्थानान्तरण क्षेत्रस्य अनुगमनं विधाय कार्यम् अग्रे वर्धयितुं निरदिशत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भाषते दलम् आस्थायाः निष्ठायाश्च केन्द्रं विधास्यते। सा नेपावर्तिनी नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालय प्रजातन्त्र सेनानी संघेन आयोजिते प्रशिक्षण कार्यक्रमे महामन्त्री थापा अगदत् दलाभ्यन्तरे विद्यमानाः त्रुटिः दुर्बलताश्च परिहृत्य अग्रज नेतृणां कार्यकर्तृणां विश्वासयोग्यं स्थानं दलं प्रापयिष्यते। महामन्त्री थापा दलाभ्यन्तरे शुद्धिकरणस्य विषयोऽपि गभीरतया विचारितोऽस्तीति अभाषत। मध्य पर्वतीय राजमार्गस्य अन्तर्गतः रूकुम मार्ग खण्डः सञ्चालितो वर्तते। गत शनिश्चरवासरस्य सायं रूकुम पश्चिम जनपदस्य मुसिकोट नगरपालिकायाः अष्टम वडा क्षेत्रस्य रिनदह स्थाने निपतितस्य भूस्खलनस्य अपसारणानन्तरं मार्गः पुनः सञ्चालितो वर्तते। डोचरयानेन भूस्खलनस्य अपसारणानन्तरं यानानि गन्तव्यस्थानेभ्य प्रस्थापितानि सन्ति इति मुसिकोट नगर प्रहरिणः असूचयत्। इति समाचारः।